सर्वेभ्यो नमः, स्वागतं. प्रथमतया वयं प्रार्थनां वदामः. वृन्दा भगिनी.
ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः. ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः. ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः. श्रीगुरुभ्यो नमः. हरि ओम्.
धन्यवादः भगिनी. अस्तु, प्रथमतया वयं गृहपाठं पश्यामः. अस्तु, अत्र प्रथमभागः अस्ति. एतस्य स्वरपत्रस्य सर्वाणि रूपाणि कण्ठस्थीकरणं कुर्वन्तु इति. अस्तु, अहं मम शेरिङ्ग् न करोमि. अस्तु, पश्यामः भवन्तः कथं कण्ठस्थीकरणं कृतवन्तः वा न वा इति. अस्तु, इदानीं
भगिनी अहं कण्ठस्थं न कुर्मः.
अस्तु, चिन्ता मास्तु. कः कृतवती?
अहं कण्ठस्थं न कुर्मः भगिनी तु
कृतवती.
समयं नास्ति,
कण्ठस्थीकरणं न कृतवती
भगिनी. अहं प्रयत्नं कृतवती परन्तु विस्मृति.
अस्तु, प्रयत्नं कुर्वन्तु. अस्तु,
पुनः प्रयत्नं करोमि.
इदानीं करोतु इत्यस्य प्रयत्नं करोतु.
करोतु, कुरुतां, कुर्वन्तु, कुरु, कुरुतं, कुरुत, करवाणि, करवाव, करवाम.
समीचीनं भगिनि. अस्तु, इदानीं कः गृह्णातु इत्यस्य प्रयत्नं करोति. एकवारं वयं पठामः, अनन्तरं भवन्तः कुर्वन्तु. अस्तु,
एकवारं
गृह्णातु. कः पठति?
गृह्णातु, गृह्णीतां, गृह्णन्तु, गृह्णाना, गृह्णीतं, गृह्णीता, गृह्णानि, गृह्णाव, कृष्णाम.
समीचीनम्. एतत् अभ्यासं भवन्तः कुर्वन्तु. अस्तु, अग्रिमवासरे कण्ठस्थीकरणं कृत्वा आगच्छन्तु. अस्तु, इदानीं भवन्तः लोट्लकारस्य परस्मैपदी अपि आत्मनेपदीक्रियापदानां रूपाणि कण्ठस्थीकरणं कृतवन्तः वा?
लट् लकार ऐ केन् डू भगिनी, परस्मै एण्ड् आत्मनेपदी. लोट् लकार लिटल् बिट् ऐ थिङ्क् किञ्चित्.
अस्तु, कः कृतवती, का कृतवती?
पठतु लोट्लकार परस्मैपदे. पठतु, पठतां, पठन्तु, पठत, पठतं, पठत, पठानि, पठाव, पठाम. आत्मनेपदे पठतां, पठितां.
न, आत्मनेपदी तु करोतु.
आत्मनेपदे वन्दते, वन्दते, वन्दतां, वन्दतां, वन्दन्तां वन्द वन्दां वन्द वन्ध्वं वन्दे वन्दावहे वन्दामहे. I'm not sure, भगिनि.
मोदते इत्यस्य प्रयत्नं करोतु.
मोदते मोदतां मोदितां मोदन्तां मोद
मोदतां मोदेतां मोदन्तां.
ओ ओके. मोदतां मोदेतां मोदन्तां मोद मोदस्व मोदत्वा मोदत्वां मोदत्वं मोदे मोदावहे मोदामहे.
समीचीनम्. अस्तु, पुस्तके पुटसङ्ख्या 56 मध्ये एकादशम् अभ्यासं कृतवन्तः वा? न कृतवन्तः चेत् अग्रिमवासरे कृत्वा आगच्छन्तु. अस्तु, बृन्दा भगिनी भवती आरम्भं करोतु. सः इत्यस्य करोतु. राधा भगिनी भवती त्वम् इत्यस्य सर्वाणि करोतु. प्रिया भगिनी अहम् इत्यस्य करोतु. अस्तु,
न कृतवती भगिनी.
प्रयत्नं करोतु. प्रयत्नं.
सः वदतु, तै तौ वदतां, ते वदन्तु. सः ब्रवितां, तौ ब्रवितां, ते ब्रवन्ताम्. ओन्लि दोस् टु वदेन भगिनि. पठति एन् शिक्षते इस् आलरेडि डन्.
समीचीनम्. इदानीं राधा भगिनि.
शिक्षते, सः शिक्षते, तौ शिक्षेते, ते शिक्षन्ते. लोट्लकार, सः शिक्षतां, तौ शिक्षेतां, ते शिक्षन्ताम्. वदति वि शुड् ऐ डु वदति आल्सो?
न. इदानीम् अहम् इत्यस्य करोतु. प्रिया भगिनि,
भगिनी वेदन्तु त्वं युवां यूयम्.
सोरि, आम् राधा भगिनी भवती त्वं त्वं
त्वं करोति, त्वं कुरु,
युवां कुरुत,
युवां कुरुतं, यूयं कुरुत, त्वं कुरुष्व युवां कुर्वतां, यूयं कुरुत्व.
न, अत्र त्वं कुरु, युवां कुरुतं, यूयं कुरुत. अनन्तरं त्वं कुरुष्व युवां कुर्वतां, यूयं कुरुत्वम्. अनन्तरं त्वं चिन्तयतु युवां युवां
चिन्तयतं
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 यूयं यूयं चिन्तयत
यूयं चिन्तयत त्वं
मनयस्व
मन्य
मन्य युवां मन्ये थां यूयं मन्येद्
मन्यतं
मन्येतं मन्यथां न भगिनि
मन्यथां
यूयं मन्य मन्यध्वं
मन्यध्वं समीचीनं
मन्यध्वम्
इदानीम् अहम् इत्यस्य अहं भजामि
अहं भजामि आवां भजाव वयं भजाम
भजति इत्यस्य
अहं भजै आवां भजावहै वयं भजामहै
समीचीनं क्रीडति
अहं क्रीडामि प्लीज़ गो अहेड् प्रिया भगिनी
इस् इट् क्रीडतै ओर् क्रीडानि
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 ओके
भगिनी ऐ हेव् अ क्वश्चन् हियर् यू हेव् भजति स्लाश् भजते सो भजति वि शुड् डू वित् परस्मैपदि भजते इस् आत्मनेपदि and both of them we should do only the lat lakara or we should do lot lakara
we're doing lot lakara
okay I think that's where I got confused with what I'm
so aham kridani avam kridava and vayam kridama bagini
रमति इत्यस्य
अहं रमै अहं रमै आवां रमावहै वयं
रमामहे
अहं रमै आवां रमावहै वयं रमामहै अत्र प्रश्नाः सन्ति वा इदानीं किञ्चित् वयं पुनः गतवर्गे वयं सङ्ख्यायाः विषये पठितवन्तः अद्य वयं पुनः पठामः अस्तु इदानीम् अत्र प्रथमतया वयं सर्वाणि रूपाणि पठामः सङ्ख्यां पठामः अनन्तरं तस्य किञ्चित् अभ्यासं कुर्मः अस्तु बृन्दा भगिनी भवती एकतः दशपर्यन्तं पठतु
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश
इदानीं लक्ष्मी भगिनी एकादशतः विंशतिपर्यन्तं पठतु
एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः
इदानीम् एकविंशतितः त्रिंशत् पर्यन्तं प्रिया भगिनी भवती पठतु
एकविंशतिः द्विविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत्
इदानीम् एकत्रिंशत्तः चत्वारिंशत् पर्यन्तं राधा भगिनी
एकत्रिंशत् द्वात्रिंशत् त्रयत्रिंशत् चतुर्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत्
समीचीनम् इदानीम् एकचत्वारिंशत्तः पञ्चाशत् पर्यन्तं वृन्दा भगिनी
एकचत्वारिंशत् द्विचत्वारिंशत् त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत्.
समीचीनम्. इदानीम् एकपञ्चाशतः द्वि षष्टिः पर्यन्तं लक्ष्मी भगिनी.
आं भगिनि, एकपञ्चाशत् त्रिपञ्चाशत् त्रिपञ्चाशत् चतुर्पञ्चाशत् पञ्चपञ्चाशत् षट् पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् नवपञ्चाशत् षष्टिः.
समीचीनं
भगिनि. 54 इस् चतुष्पञ्चाशत् रैट्?
या चतुष्पञ्चाशत्.
समीचीनम्. इदानीं प्रिया भगिनी, एकषष्टितः सप्ततिः पर्यन्तं पठतु.
एकषष्टिः द्विषष्टिः त्रिषष्टिः चतुष्षष्टिः पञ्चषष्टिः षट्षष्टिः सप्तषष्टिः अष्टषष्टिः नवषष्टिः सप्ततिः.
समीचीनं भगिनि. इदानीम् सप्ततितः अशीतिः पर्यन्तं राधा भगिनी भवती पठतु.
सप्ततिः एकसप्ततिः द्विसप्ततिः त्रिसप्ततिः चतुस्सप्ततिः पञ्चसप्ततिः षट्सप्ततिः सप्तसप्ततिः अष्टसप्ततिः नवसप्ततिः अशीतिः.
इदानीं वृन्दा भगिनी, एकाशीतितः नवतिः पर्यन्तं पठतु. वृन्दा भगिनी.
आं भगिनि, एकाशीतिः द्वयशीतिः त्रयशीतिः द्वयशीतिः द्व्यशीतिः त्रयशीतिः चतुर्शीतिः त्र्यशीतिः चतुर्शीतिः पञ्चाशीतिः
चतुरशीतिः
चतुरशीतिः पञ्चाशीतिः षडशीतिः सप्ताशीतिः अष्टाशीतिः नवाशीतिः नवतिः.
शीतिः और शीतिः भगिनी? लाङ्ग् साउण्ड् और शॉर्ट साउण्ड्?
शी शी
शीतिः. शीतिः नो भगिनी,
लाङ्ग् अशीतिः.
ओके, लाङ्ग् साउण्ड्.
इदानीं लक्ष्मी भगिनी, भवती एकनवतितः शतपर्यन्तं पठतु.
एकनवतिः द्विनवतिः त्रिनवतिः चतुर्नवतिः पञ्चनवतिः षण्णवतिः सप्तनवतिः अष्टनवतिः नवनवतिः शतम्.
समीचीनम्. अस्तु, इदानीं वयं किञ्चित् अभ्यासं कुर्मः. अस्तु अस्तु, एतत् न पश्यन्तु. अस्तु, पश्यन्तु. इदानीम् अहं संख्याम् आङ्ग्लभाषायां वदामि, भवन्तः संस्कृते वदन्तु. अस्तु,
सेवेण्टि सप्तदश
अस्तु अहं लिखामि I said 17, not
17.
17. Oh.
Saptatih.
Pratamataya, aham sula baha karumi, anantaram kashtam bhavati.
Navatih.
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 Trimshat.
पञ्चाशत् दश
चत्वारिंशत् सप्ततिः
त्रिंशत्
विंशतिः
अष्टतिः नवतिः शतं
षष्टिः
दश
पञ्चाशत्
अत्र प्रश्नाः सन्ति वा न सन्ति चेत् किञ्चित् कठिनः भवति इदानीम् एतत् न दश योगः विंशतिः त्रिंशत् अस्ति इति वक्तव्यम्
योगः इत्युक्ते
योगः अहं लिखामि अत्र पर्यायः भवति पर्यायः भवति
त्रिंशत् अस्ति
योगः अस्तु इदानीं बृन्दा भगिन्याः पर्यायः
त्रिंशत् योगः चत्वारिंशत् इति सप्ततिः अस्ति
तत्र त्रिंशत् योगः चत्वारिंशत् सप्ततिः अस्ति अस्तु अनन्तरं लक्ष्मी भगिनी
विंशतिः योगः सप्ततिः नवतिः अस्ति
नवतिः अस्तु अनन्तरं प्रिया भगिनि
दशः योगः त्रिंशत् चत्वारिंशत् अस्ति
अस्तु समीचीनम् अस्तु एकनिमिषः अत्र सर्वे कृष्णफलकं केन् एव्रिबडि ओपन् देर् कृष्णफलकं लैक् टु रैट् आन् इट्
हा ओके भगिनि
I'll change this just for today so that anybody can edit for now. Just go to the top. Kimapi na kurunto. So, kaha
agatati? I won't be able
I'm
to do
I'm on a phone, Bhagini. I don't think I can.
Even I'm on a phone.
I can't do it either, Bhagini.
Ask.
Just look here.
Then I think Priya Bhagini came then. You
yes,
can just
Bhagini.
Go back then.
Okay, Bhagini.
You can do it. Okay. इदानीं प्रिया भगिनी ओ अहं संस्कृते एव अहं रैट् द नम्बर्स् इन् संस्कृतम् इत्
That will be difficult, I suppose.
Oh no, Bhagini.
Dasha Yoga Saptitihi. Saptatihi.
Ashtatihi.
Ashtatihi.
Ashitihi.
Ashitihi. Katina Hasti. Dani.
Thirty and
Shashtihi Yoga Trimshata Navatihi Asti. Trimshat Yoga Vimshati Panchashat
Ashti. Samichin. इदानीं किञ्चित् कठिनः करोमि अस्तु
एकविंशतिः योगः एकविंशतिः
चतुस्त्रिंशत् अस्ति पञ्चपञ्चाशत् अस्ति
षट्षष्टिः
अस्ति
अस्तु अनन्तरं
षट् चत्वारिंशत् त्रयोविंशत्
त्रिंशत्
नवसप्ततिः
अस्तु अनन्तरम् अस्तु इदानीं संस्कृते लिखामि
पञ्चचत्वारिंशत् योग त्रयोदश अष्टपञ्चाशत् अस्ति
समीचीनम्
सप्तषष्टिः
सप्तषष्टि योग द्वाविंशति
द्विविंशतिः
भगिनी इस् इट् द्वा ओर् द्विविंशतिः
द्वाविंशतिः ओ द्वाविंशतिः ओके
नवशतिः नवशति नवशितिः एकाशीतिः
एकाशीतिः
तत् नम्बर् इस् वन् भगिनि
देट् वास् नम्बर् 9 ऐ थिङ्क् 89 इट् वास् रैट्
That was upside down. It wouldn't look like a one.
No, one is this way. Yeah, that was number 9. So it was the Ashtashiti.
Oh.
सप्तदश योग द्वात्रिंशत् सप्तदश योग नवचत्वारिंशत्
क्षम्यताम् अस्तु किमस्ति अत्र अहं किं लिखितवती किम् अस्ति अत्र संस्कृते किमस्ति
सप्तादश योज द्वात्रिंशत्
द्वात्रिंशत्
अस्तु
नवचत्वारिंशत् अस्तु
अस्तु
अस्तु एकनिमिषः अहं किं लिखितवती
नवचत्वारिंशत्
समीचीनं एतत् सुलभः कथं कुर्मः अस्तु अन्यत् लिखामि एतत् अस्ति चेत् किं कुर्मः प्रथमतया आङ्ग्लभाषायां लिखामः किमस्ति
पञ्चचत्वारिंशत् चतुर्दशः
उत्तरं किमिति लिखन्तु इदानीं संस्कृते वदन्तु
नवपञ्चाशत्
अस्तु इदानीं किं कुर्मः चेत् एकनिमिषः
पञ्चचत्वारिंशत् योज चतुर् चतुर्दश नवपञ्चाशत्
दृश्यते वा एतत्
न भगिनि कृष्णफलकमेव दृश्यते भगिनि
एकनिमिषः अहं री शेर् करोमि इदानीं कृष्णफलकमेव दृश्यते अस्तु एकनिमिषः किम् एतत् न दृश्यते अस्तु इदानीं दृश्यते वा
हा दृश्यते भगिनि
इदानीं किं कुर्मः चेत् अस्तु एतत् इति अस्ति परन्तु गतवर्गे वयं कृतवन्तः परन्तु इदानीं वयं 63 इति आगतम् अस्तु इदानीम् अहम् आङ्ग्लभाषायामेव किमस्ति किं
त्रिषष्टिः
त्रिषष्टिः
नवतिः चतुर्
चतुर्नवतिः
चतुर्नवतिः
इदानीम् अत्र 63 इति आगतम् इदानीम् अत्र
नव
आगतं 63+9 किमस्ति
72
संस्कृते
द्विसप्ततिः
सप्ततिः द्विसप्ततिः
द्विसप्ततिः
अष्टादश
सप्तपञ्चाशत् अष्टादश
पञ्चसप्ततिः
अनन्तरं किमस्ति
एकविंशतिः
योगः
योगः दशः
अत्र पुनः आगच्छामः एकं पश्यामः एकनिमिषः अस्तु अत्र पश्यन्ति चेत् अत्र द्वे इति आगच्छति, अनन्तरं द्वादश इति द्वाविंशतिः, द्वात्रिंशत्, अनन्तरं किं
द्वि
द्वि इति भवति, एकनिमिष द्वि इति अस्तु, अनन्तरं
द्वाय
तत्र द्व्य इति अत्र
अशीतिः द्वय अस्ति, तदनन्तरं द्वि
पश्यति
चेत् अशीतिः इत्यस्य रूपाणि न भवन्ति, तत्र क्रिया इति भवति, तत्र पश्यन्ति चेत् त्रयोदश अपि त्रयोविंशतिः इति अस्ति, अनन्तरं त्रयस्त्रिंशत् इति अस्ति, अनन्तरं त्रिचत्वारिंशत्, त्रिपञ्चाशत्, त्रिषष्टिः, त्रिसप्ततिः, त्रिनवतिः, अनन्तरं त्र्यशीतिः इति चत्वारि, तस्य सर्वाणि चतु इति एव आगच्छन्ति, पञ्च इत्यस्य अपि सर्वाणि एवमपि एवमेव, परन्तु षट् इत्यस्य केवलं षट्
षट्सिक्स् षडि
षोडश
विंशतिः इत्यस्य तत्र आगतं, षड्विंशतिः एव तत्र, तत्र षण्णवतिः इति आगच्छति, षडशीतिः इति आगच्छति, अपि षोडश अपि षड्विंशतिः,
षण्णवतिः, षण्णवतिः,
षण्णवतिः,
षण्णवति
न
षड् एण्ड् षण् अदर्स् आर् आल् षट्
एवं भवन्तः कुर्वन्ति चेत् तत्र सुलभः भवति कण्ठस्थीकरणार्थम्, अस्तु तत्र यदि भवन्तः अस्तु अहं वयं किञ्चित् वर्गे कुर्मः इदानीं, तत्र अष्टादश इत्यस्य पश्यन्ति चेत् अष्ट 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 अनन्तरम् अष्ट
अष्टनवति
अष्ट अष्ट अस्तु, परन्तु अष्ट इति
अष्टादश
अष्टाशीतिः 28 एण्ड् 88 आर् अष्ट
अष्टात्रिंशत् अष्टाविंशतिः,
तत्र किमस्ति
अष्टाशीतिः
18, 28, 38 and 88
अष्ट इति भवन्ति, अस्तु एतत् यदि भवन्तः कण्ठस्थीकरणं सङ्ख्याः शतपर्यन्तं भवन्तः कण्ठस्थी करणीयम्, अस्तु तस्य इदानीं पश्यन्ति चेत् वयं अस्तु एतत् पुटसङ्ख्या अस्ति तस्य 58, संस्कृते किमस्ति
अष्टपञ्चाशत्
अष्टपञ्चाशत् अध्यायस्य संख्या किं 17
सप्तदश
अस्तु एकनिमिषः अहं डिफ्रेण्ट् स्क्रीन् शेर् करोमि अस्तु दृश्यते वा
आं भगिनि
अस्तु इदानीम् अहं लिखामि तस्य संस्कृते संख्या अस्ति अपि संख्या योगः संख्या इति लिखामि चेत् तस्य किम् इति अपि वदनीयम् अस्तु इदानीम् एतस्य किं
सप्तदश
द्वाविंशतिः
नवत्रिंशत्
नवत्रिंशत्
समीचीनम् अनन्तरं
चतुश्चत्वारिंशत्
योगः
त्रयोविंशतिः
सप्तषष्टिः सप्तषष्टिः
सप्तषष्टिः समीचीनम् अनन्तरं
नवपञ्चाशत्
नवपञ्चाशत्
नवविंशतिः
योग नवविंशतिः
अष्टाशीतिः
समीचीनम् अस्तु इदानीं भवन्तः एकं लिखन्तु वदन्तु अहमेकं लिखामि
चतुःषष्टिः योग
चतुश्चत्वारिंशत्
चतुःषष्टिः
चतुःषष्टिः
चतुःषष्टिः योगः
योग षट्त्रिंशत्
अनन्तरं
द्विसप्ततिः योग
अष्टादशः
शतं
नवतिः
नवतिः
and
चतुरशीतिः षोडश
शतं
एकनवतिः
योग
द्वे
त्रीनवतिः
इदानीं
षट्त्रिंशत्
अष्टाविंशतिः योग चतुर्विंशतिः
त्रिंशत् नवत्रिंशत् एकपञ्चाशत् नो सारि
एकसप्ततिः
चतुष्पञ्चाशत् त्रिनवतिः
नैन्टि नैन् अष्टचत्वारिंशत् योग एकसप्तपञ्चाशत्
नवनवतिः द्विपञ्चाशत् योग अष्टचत्वारिंशत्
शतं इदानीं वयं गीतासोपानं पुनः पश्यामः अत्र अभ्यासं कुर्मः अस्तु तत्र आवरणे विद्यमानां संख्यां दृष्ट्वा कति सन्ति इति लिखत वृन्दा भगिनी प्रथमं करोतु
द्वौ हस्तौ एकं धनुः
न धनुः इति किं लिङ्गं
धनुः इस् स्त्रीलिङ्गं
न आम् उकारान्त स्त्रीलिङ्गम्
उकारान्त
एका इति एव वदामः
एका धनुः
एकाधेनुः
एकाधेनुः
Bhagini, which numbers have the lingam, Bhagini? Just the first five?
Okay. Bhagini, why does it become dhenuhu? It's dhan, it's wrong, it's written over here, right?
Ama, dhanuhu iti eva vadanto.
Eka dhenuhu.
धनुः आर् धेनुः एका
धेनुः इति वदामः
धेनुः इति
That's when it will have change of धनु इति अपि अस्ति परन्तु अहं धेनुः इति वदामि तदा स्त्रीलिङ्गं भवति इति अथवा धनु इति नपुंसकलिङ्गः भवति अस्तु पुल्लिङ्गः अपि भवति परन्तु अहं स्त्रीलिङ्गः किञ्चित् कठिनः भवति तदर्थम् अस्तु अनन्तरं संस्काराः कति
षोडशसंस्काराः
समीचीनम् अनन्तरं सारथिः
एकः
सारथिः
एका सारथिः
स्त्रीलिङ्गं वा पुल्लिङ्गं वा भगिनि
पुल्लिङ्गः
एकः
सारथिः
एकः सारथिः
दश इन्द्रियाणि
समीचीनम् अस्तु इदानीं प्रिया भगिनी करोतु
अयने लिङ्गं न जानामि भगिनि अयने अयनम् ओ अयनं न पुंसकलिङ्गं द्वे अयने
द्वे अयने समीचीनम् आश्रमाः किं भवति प्रिया भगिनि
अक्षमाः चत्वारि अक्षमाः
चत्वारः आश्रमाः
ओ आश्रमाः चत्वारः आश्रमाः
अनन्तरं सिद्धिकारणानि
कर्मसिद्धिकारणानि न पुंसकलिङ्गं पञ्च कर्मसिद्धिकारणानि
समीचीनम् अनन्तरं
योधाः अशीतिः योधाः
समीचीनम् अस्तु इदानीं लक्ष्मी भगिनी
द्विचत्वारिंशत् अश्वाः षट् ऋतवः षड् ऋतवः चतुश्चत्वारिंशत् इषवः
चतुष्पञ्चाशत्
चतुष्पञ्चाशत् इषवः अष्टादश अध्यायाः
अस्तु अत्र स्थगयतु अनन्तरं राधा भगिनि
भगिनि विच् वन् इस् इट् 14 गजाः षट्सप्ततिः गजाः
अनन्तरं त्रीणि
त्रीणि नेत्राणि
नायकः
त्रीणि नायकाः
त्रयः
त्रयः
अनन्तरं जन्म नक्षराणि
जन्म नक्षत्राणि नक्षत्रं नक्षत्राणि नवविंशति 27 नो सप्तविंशतिः जन्मनक्षत्राणि
समीचीनम् इदानीं भगिनि नायकाः स्त्रीलिङ्गं वा पुल्लिङ्गं वा भगिनि
नायकाः नायकः
पुल्लिङ्गं भगिनि
पुल्लिङ्गं
पुल्लिङ्गं त्रयः नायकः स्त्रीलिङ्गं वा किं वदति भगिनि
पुल्लिङ्गं नायकः
सो वाट् वुड् बि से फार् स्त्रीलिङ्गं फार् त्रीणि भगिनि नम्बर् त्री इन् स्त्रीलिङ्गं
त्रयो
ओ त्रयो
त्रयो
धन्यवादः भगिनि
समीचीनं
भगिनि केन् वी प्लीस् प्राक्टिस् दट् नम्बर्स् इन् स्त्रीलिङ्ग् अण्ड् पुल्लिङ्ग् वन्स् अगेन्
आम् एकनिमिष अहं तत् दर्शयामि कुत्र कुत्र वयं अभ्यासपुस्तके कुत्र अस्ति वयम् अभ्यासपुस्तके पठितवन्तः इति अहं जानामि अहं जानामि एकनिमिषं दर्शयामि तत् अस्तु एकम् एकः बालकः एका बालिका एकं पदम् बालिकाद्वयं बालिकाद्वयं फलद्वयं त्रयः बालकाः तिस्रः बालकाः त्रीणि फलानि चत्वारः बालकाः चतस्रः बालिकाः चत्वारि फलानि पञ्च बालकाः पञ्च बालिकाः पञ्च फलानि अस्तु
Bhagini, for the way it is different, Bhagini, we have to say it after, is it?
Ekanimsha.
Dvayam, dvayam, dvayam.
Aham tat darshayam.
So in this case, it would have been Tishraha Nayakaha, if it was Tri Lingam. Okay.
Thank you. सङ्ख्यायाः लिङ्गभेदः अहं दर्शयामि वयम् अभ्यासपुस्तके कदा कृतवन्तः ओ अहं लिखितवती अस्तु अस्तु अहं जानामि कुत्र अस्ति इति एकः एका एकं द्वौ द्वे द्वे इदानीं गजत्रयम् इत्यस्ति एक एक एकं अस्तु अत्र द्वौ द्वे द्वे इति अस्तु द्वौ गजौ द्वे आलिके द्वे पुस्तके अस्तु
द्वे द्वे द्वौ पुल्लिङ्गं भगिनि ओके
अस्तु अहम् एतत् पुनः प्रेषयामि अस्तु अभ्यासपुस्तकं कस्य सङ्ख्या एतत् किम्
अष्ट
अष्ट
49 नवचत्वारिंशत्
अभ्यासं कुर्वन्तु आगच्छति अत्र गच्छामः कुत्र स्मः जन्मन द्वे सेने तत्र स्मः द्वे सेने अनन्तरं
भगिनि ऐ हेव् अ क्वश्चन्
आं भगिनि
Bhagini, when do we use Chatushtayam and that you just showed?
Kutra Bhagini?
Just now when you showed that table with the Gajaha and everything.
This one?
No, this is Chatvaraha, Chatastraha, Chatra. There was Chatushtayam and all that. Chatra? Was, you know, Bhagini. I think to scroll down. Chatushtayam. So when is this used, Bhagini?
Atra vayam we can say it in two ways, Bhagini. We can say chatasraha balika has two words athava balika yeah. chatushtayam.
Okay. Yeah. Thank you, Bhagini.
Ivanim. 19 tatra. 32 dantaha. Kimasti Brinda Bhagini?
Dvau sene.
Krutavantaha. Dve sene.
Dve sene. Do I have to do the 19th one, Bhagini? द्वात्रिंशत् दन्ताः
दन्ताः समीचीनम् अनन्तरं विंशतिः
षण्णवतिः
स्यन्दनानि
षण्णवतिः
स्यन्दनानि अनन्तरं लक्ष्मी भगिनी
द्वादश आदित्याः चत्वारे युगाने द्वे पक्षौ अष्टादश पुराणानि षट् रसाः पञ्च प्राणाः चतुर्दश मनवः त्रयत्रिंशत् देवताः
समीचीनं भगिनि
भगिनि द 23rd वन् विल् बि द्वौ पक्षौ रैट् नाट् द्वे पक्षौ Dvau Pakshau, right?
Dvau Pakshau.
Is it Dvau?
Ham Krishna Palake Sarvani Stapitavati Dhani.
Dvau Pakshau because it is two birds, is it?
Okay. But what is the Lingam Bhagini?
Pakshi. Dri Lingam, right? Pakshi.
Pakshaha. अत्र प्रश्नाः सन्ति वा न सन्ति चेत् तत्र पञ्चादशनिमिषाः सन्ति वयं तत्र अत्र ज्ञानवर्गे
प्रश्नः अस्ति भगिनि 9th वन्
किं भगिनि
अष्टवसवः इस् इट्
विच् वन् ninth one.
Yeah.
Ashtavasaha.
And Ashvaha is? Tenth one is? Dvichatvarimshat.
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 अहं कृष्णपल्लके स्थापितवती, तत्र पश्यन्तु. अस्तु,
ओके ओके.
अस्तु, ज्ञानवर्धिनी. अक्षौहिण्याः परिमाणं. कः श्लोकं पठति? श्लोकं यदि भवन्तः पठन्ति तत्र एतत् न पठन्तु, केवलं श्लोकमेव पठन्तु. अस्तु, अत्र 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 अत्र. अस्तु, कः पठति श्लोकम्?
अहं पठामि.
अस्तु,
विच् वन् शुड् ऐ रीड् अण्ड् मिस् औट्?
अस्तु, डोण्ट् रीड् वट् इस् इन् द पेरेन्थिसिस्, जस्ट् कण्टिन्यू विदौट् रीडिङ्ग् वट् इस् इन् द पेरेन्थिसिस्.
ओके. ज्ञानवर्धिनी. एको रथो गजशैको नराः पञ्च पदातयः प्रयश्च तुरगास्तन्यैः पतिरित्यभिधीयते. पतिं तु
पतिरित्यभिधीयते.
पतिरित्यभिधीयते. पतिरित्यभिधीयते. पतिं तु त्रिगुणमेतामाहुः सेनामुखम् बुधाः त्रिणीसेनामुखन्येको गुल्म इत्याभिधीयते. त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः. स्मृतास्तिस्त्रस्तु वाहिन्यः पृतनेति विचक्षणयः. चमुस्तु पृतनास्तितस्
ृतनास्तिस्रश्चम्बस्पनिकिनि
अनीकिनी दशगुणां प्राहुरक्षौहिणीं बुधाः.
सो वट् दे आर् सेयिङ्ग् हियर् इस् इन् द फस्ट् पार्ट् एकोरथो दट् पार्ट् तत्र एकः गजः तत्र एको रथो एकः रथः गजश्चेको गजः एकः गजः एकः रथः नराः पञ्चपदातयः पञ्चपदातयः नराः त्रयश्च तुरगास्तज्ञे तत्र अश्वाः इति त्रयः अश्वाः पत्तिरित्यभिधीयते. एकः पत्तिः अस्ति. अनन्तरम् एतत् पर्यन्तं तत् त्रयः पत्तयः एकः सेनामुखम्. अस्तु, त्रयः सेनामुखानि एकः गुल्मः. त्रयः गुल्माः एकः गणः. त्रयः गणाः एकः एका वाहिनी. त्रयः वाहिन्यः एका पृतना. पृतनाः एकं चमूः. त्रयः चम्वः एका अनीकिनी. दश अनीकिन्यः एक का अक्षौहिणी अस्ति.
Is this an army grouping, bhagini?
Bhagini, ekam...
Three soldiers.
In Angla bhashayam,
what
the bhagini?
Three foot soldiers.
तत्र गजः इत्युक्ते एलिफेण्ट्, रथः इत्युक्ते चारियट्, पदातयः नराः इत्युक्ते फुट् सोल्जर्स्, अश्वः इत्युक्ते हार्स्. देन् दोस् आर् जस्ट् द नेम्स् फर् दट्. तत्र एकः अक्षौहिण्य गजाः एकविंशतिसहस्रम् अष्टशतम् अधिक सप्ततिः गजाः एकविंशतिसहस्रम् अष्टशतमधिक सप्ततिः तथाः पञ्चषष्टिः सहस्र दशाधिकषट्शत अश्वाः अनन्तरम् एककोटिरधिकनवसहस्रपञ्चाशत् अधिकत्रिशत पदातयश्च भवन्ति. एकः अक्षौहिण्याम् एतत् अस्ति. अस्तु अस्तु अत्र तत्र एकः गजः एकः रथः पञ्चपदातयः नराः त्रीणि अश्वानि एकः पत्तिः भवति. त्रयः पत्तयः अस्ति चेत् कति गजाः सन्ति?
त्रयः पदाः त्रीणि गजाः
त्रयः
पञ्चदश
न एकः
त्रयः गजाः
त्रयः गजाः.
What is the question, Bhagini? Sorry, I'm not understanding.
If there is one three patihi, then how many elephants?
For 3 foot soldiers, one elephant, Bhagini. So for 3 foot soldiers?
No, not foot soldiers. Patihi.
Patihi is what, Bhagini? Soldiers?
Patihi. One group. सो एकः पत्यां मति गजाः सन्ति.
एकः पत्यां एकः गजः सन् अस्ति.
इदानीं त्रयः पत्यः सन्ति चेत्
त्रयः गजाः
त्रयः रथाः पञ्चदशपदातयः नराः नव अश्वाः सन्ति. अस्तु इदानीं
भगिनी वाट् इस् द पदातयः नराः? फुट् सोल्जर्स्. ओके
अनन्तरं किमस्ति? पत्ययः. अस्तु इदानीं तेन तत्र त्रीणि सेनामुखानि सन्ति चेत् कति गजाः सन्ति?
त्रयः गजाः सन्ति.
न
त्रीणि सेनामुखानि
त्रयः कति पत्तिः भवति? नव.
ओ नवपत्यः. ओके त्रीणि सेनामुखानि मुखानि सन्ति चेत् नवपत्यः सन्ति पत्तयः सन्ति
तत्र नवगजाः
नवगजाः
पञ्चचत्वारिंशत् पदातयः नराः अपि सप्तविंशतिः अश्वाः. अस्तु अत्र प्रश्नः सन्ति वा सङ्ख्याः विषये अथवा तत्र ज्ञानमस्ति?
Meaning of those words are, if you can say, Bhagini.
Yeah, Bhagini, what is Gulmaha? I didn't get it. What is Gulmaha?
Not really, it's army formations, like groups.
Oh, okay.
So each of these are like specific names of army formations, Bhagini, Ganaha.
Not really army formations, like how, but groups, think of them as groups.
Okay.
In Patihi is one group, so there is one elephant, one chariot, five foot soldiers, and three horses in there. If you make three of those, that makes a bigger group, which is one Senamukham.
If you take
three of these Senamukham, then you get one Gulmaha.
If you take three of these Gulmaha,
you get a Ganaha. Take three Ganaha, you get a Vahini. Take three Vahini, then you get a Pratana. Take three Pratanas, you get a Chamuhu. Take three Chamvaha, you get a Aniki. Take 10 of Anikinis, then you get an Akshohini.
I see, okay, I understood now.
In that Akshohini, there are 21,870 elephants and chariots, 65,610 horses, and 109,350 foot soldiers.
Okay. And that is what the slogan is also saying, Bhagini?
Yeah.
Okay.
We're not really going into what it's really what Vibhakti and all in the shlokam. We're just trying to make practice with
the numbers.
So, agrima vasari kinchit sankhyaha abhyasam kristuva vayam vibhachya prayogaha kachyama. Tatar vibhachya prayogaha smarantiva vayam vibhakti valari कृतवन्तः तत्र षष्टिविभक्त्याम् अभ्यासद्वयम् आसीत् तत्र विभज्यप्रयोगः आसीत् तत्र विद्युतः इदानीम् अहं न जानामि एकनिमिषः तत्र षष्टिविभक्त्यम् अस्ति तत्र वयं विभज्यप्रयोगः तस्य कारणस्य अनन्तरं वयं विभक्तिवलर्यां अभ्यासद्वयम् आसीत् वयं न कृतवन्तः तद् वयं कुर्मः वि डि नाट् डु इट् बिकास् इट् वास् टू हार्ड् बिकास् वि हेण्ट् लेर्न् द विभज्यप्रयोगः सो वि लेर्न् देट् नेक्स्ट् वीक् एण्ड् इफ् वि हेव् टैम् विल् डू देट् नेक्स्ट् वीक् अस्तु सो विल् आल्सो बि यूसिङ्ग् विभक्तिवलरी बुक् नेक्स्ट् वीक्
भगिनी विभज्य इत्युक्ते
अत्र स्थगयामः कः शान्तिमन्त्रं वदति
अहं वदामि भगिनि
अस्तु
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः
धन्यवादः भगिनी नमस्कारः पुनर्मिलामः